Can you see my screen, Guru?
Yes, Swamiji.
Hariyam, Sarvebhyo Namaskarah. Yenaksharasamam nayam adhigamyamaheshwarat yuksmam vyakaranam proktam tasmai paanyaye namaha. Vakyakaram pararuchim bhashyakaram patanjalim paaninim sutrakaram cha pranatosmi munitrayam. మునిత్రయం నమస్కృత్య తదుక్తి పరిభావ్య చ వైయాకరణ సిద్ధాంత కౌముదీయం విరచ్యత. హోప్ ఎవ్రీబడి స్టిల్ ఇన్ టచ్ విత్ వాట్ వి హావ్ బీన్ డూయింగ్. వి హావ్ జస్ట్ వన్ క్లాస్ ఆన్ అచ్చంబి ప్రకరణం. లెట్స్ జస్ట్ సీ వాట్ వి యాక్చువల్లీ లెర్న్ దట్. సంధి నామ సంహితాయాం సత్యాం క్వచిత్ వర్ణానాం వ్యత్యయ దృశ్యతే సదేవ సంధి శ్రూయతే. సంహితా నామ ఇది చేత పాణినేవ ఉక్తం. పరసన్నికర్ష సంహిత వర్ణానాం అతిశయిత సన్నిధి సంహితా సమ్యః స్యాత్. సంహితాయాం సత్యాం కదాచిత్ సంధి కార్యాణి. పాణినినా తు సంధి ఇది పదం నోపయుక్తం, పరంతు సూత్రేషు సంధి కార్యాణి విహితాని. సంధి కార్యాణి త్రేధా భవితమర్హంతి, ఆదేశ ఆగమః లోపశ్చేత్. తత్ర ప్రథమం సూత్రం సిద్ధాంతకౌముద్యం ప్రథమం సూత్రమస్తి ఇకో ఎణచి. ఇకః స్థానే ఎణ్ స్యాత్ అచి సంహితాయాం విషయే ఇది సూత్రార్థ సంపన్నః. సుధీ ఉపాస్యః ఇతి స్థితే. ఇకః నామ ఈకారస్య, అచి పరే ఉకారే పరే ఏణాదేశః స్యాత్. స్థానే అంతరతమః ఇత్యత్ర అంతరతమ్యాత్ ఈకారస్య యకారాదేశే శుద్ధీయ ఉపాస్యః ఇతి జాతం. తతశ్చ అనచి చ ఇతి ద్విత్వం ప్రవర్తతే. అచః పరస్య యరః దేవాస్తః నతోచి. అచః నామ ఉకారాత్ పరః యః యర్వర్ణః ధకారః. తస్య అనచి అర్థాత్ యకారే పరే, యకారస్య అనచ్త్వాత్ యకారే పరే ద్విత్వే సతి సు ధ్ ధ్ య ఉపాస్యః ఇతి జాయతే. ఇత్యేతావత్ పర్యంతం ప్రక్రియా జ్ఞాతం. కింటు మధ్యే కశ్చన సందేహః జాతః. అనచి చ ఇతి ద్విత్వస్య అవకాశః అస్తి వా నాస్తి ఇతి విచారయంతః దీక్షితాః. స్థానివద్భావం స్థానివద్భావస్య వస్తుతిం కుర్వంతి. కో నామ స్థానివద్? స్థానివదాదేశః అనల్విధౌ. స్థానివదాదేశః అనల్విధౌ ఇత్యుచ్యతే సూత్రేణ. కః అర్థః? ఆదేశః స్థానివత్ స్యాత్ అనల్విధౌ ఇతి సూత్రార్థః. ఆదేశః స్థానివత్ స్యాత్ నతు స్థాన్యలాశ్రయ విధౌ. కిముదాహరణం? రామ ఇత్యస్మాత్ యే ప్రత్యయే పరే, యే ఇత్యస్య య ఇతి ఆదేశః క్రియతే. రామ య ఇతి స్థితే. సుపి చ ఇతి సూత్రేణ దీర్ఘః కరణీయః. రామాయ ఇతి ఇష్టం రూపం, తత్సాధనార్థం సుపి చ ఇతి సూత్రేణ దీర్ఘః కరణీయః. కిముచ్యతే అనేన సూత్రేణ? యయాదౌ సుపి పరే, సుప్రత్యయే పరే అకారాంతస్య అంగస్య దీర్ఘః భవతి ఇత్యుచ్యతే. కింటు య ఇతి ఆదేశస్య సుత్వం నాస్తి. యే ఇతి సుప్ భవతి, కింటు య ఇతి సుప్ న భవతి. తస్మాత్ అత్ర దీర్ఘః న ప్రాప్నోతి. తదా ఆదేశః అర్థాత్ అత్ర కృతః యే ఇత్యస్య యాదేశః స్థానివత్ యే వత్ స్యాత్. అర్థాత్ యే ఇత్యస్మిన్ యః సుత్వధర్మః అస్తి సః ఆదేశే య ఇత్యస్మిన్నపి అతిదిశ్యతే. తస్మాత్ య ఇత్యపి ఇదానీం సుప్ భవతి. సుపి చ ఇతి సూత్రేణ దీర్ఘే సతి రామాయ ఇతి రూపం సిద్ధ్యతి ఇతి స్థానివద్భావస్య ఉదాహరణం. సర్వత్ర ఆదేశః యత్ర కుత్రాపి యత్ర యః ఆదేశః క్రియతే సః స్థానిని యే ధర్మాః సంతి తాన్ ధర్మాన్ స్వస్మిన్నపి ఆరోపయతి ఇతి సూత్రార్థః. కింటు స్థానివద్భావః న సార్వత్రికః. సర్వత్ర స్థానివద్భావస్య ఉపయోగః న ఇష్యతే. ఉదాహరణార్థం దివ్ ఇది ప్రాతిపదికాత్ సుప్రత్యయ క్రియతే. दिव औत् इति सूत्रेण वकारस्य स्थाने औकारः आदेशः दि औ इदानीं यदि अत्रापि स्थानिवद्भावः आश्रियेत अर्थात् आदेशः औकारः स्थानिवत् वकारवत् स्यात् अर्थात् हल्वत् स्यात् वकारस्य यः हल्त्वधर्मः सः औकारेऽपि यदि अतिदिश्येत तर्हि हल्याभ्यो दीर्घाच्युतिस्य कृतं हल् इति सूत्रेण सुप्रत्ययस्य लोपः स्यात् इत्यापत्तिः यदि अत्र स्थानिवद्भावः आश्रीयते तर्हि सुप्रत्ययस्य लोपः स्यात् नेष्यते सुप्रत्ययस्य लोपः तस्मात् सूत्रे एव उक्तम् अनल्विधौ यः अल्विधिः तत्र स्थानिवद्भावः नास्ति को नाम अल्विधिः स्थानी एकः वर्णः अल् नाम एकः वर्णः एकः वर्णः स्थानी भवति चेत् तदाश्रितञ्च कार्यं भवति चेत् तत्र स्थानिवद्भावः न भवति अत्र वकारः स्थानी स च एकः वर्णः तम् आश्रित्य अर्थात् वकारे यः हल्पधर्मः तम् आश्रित्य इदानीं सुप्रत्ययस्य लोपः कर्तुम् इष्यते किन्तु ईदृशेषु स्थलेषु स्थानिवदादेशः अनल्विधौ इति निषेधः भवति तस्मात् स्थानिवद्भावः नास्ति इति स्थानिवद्भावस्य साधारणतया परिचयः स्थानिवद्भाव इस् एम्प्लाय्ड् इन् मेनि केसेस् वेर् वी हेव् स्थानी एण्ड् अन् आदेश द प्रापर्टीस् आफ् द स्थानी आर् इम्पोस्ड् आन् टु द आदेश दट् इस् स्थानिवद्भाव बट् वी डु नाट् डू दिस् एव्रिवेर् देर् आर् एक्सेप्शन्स् इफ् the vidhi that is whatever we are trying to do happens to be an al vidhi that is it depends on a single letter in the sthani then we cannot apply sthaniya bhava it was the sutta tells sthaniya adeshah anal vidhau now what how is it related to our present matter that is eco energy eco energy ityatra sthaniya bhave sati ritva nishedhah syat iti apatti कथं सुधी उपास्यः इत्यासीत् सुधीभिः उपास्यः इति समासे सुधी उपास्यः इति सति इको यणसि इत्यनेन यणादेशे सुध्य उपास्यः इति जातम् अत्र स्थानी कः ईकारः स्थानी यकारः आदेशः इकः यण् इकः इति ईकारः स्थानी यण् इति आदेशः स्थानिवत् स्यात् अर्थात् यकारः ईकारवद्भवति ईकारवद्भवति इत्युक्ते ईकारः अच् तस्मात् यकारोऽपि अज्वद्भवति यकारे अच्वधर्मः अतिदिश्यते यदि यकारः अच् स्यात् तर्हि कः आपत्तिः का आपत्तिः इदानीम् अस्माभिः अत्र द्वित्वं कर्तुम् इष्यते अनचित इति सूत्रेण द्वित्वं करणीयं कः नियमः अनचित इत्यस्य अजः परस्य यरः द्वे वा स्तः न तु अचि कथं द्वित्वं क्रियते अस्माभिः उकारः अच् तस्मात् परः धकारः यर्वर्णः ततः यः यकारः सः न अच् अच् नास्ति इति कृत्वा अस्माभिः द्वित्वं क्रियते किन्तु अनेन स्थानिवद्भावेन यदि यकारे अच्त्वं स्यात् तर्हि अयमपि अज् भवति यदि यकारः अज् भवति तर्हि अनचि इत्युक्तत्वात् भकारस्य द्वित्वं न स्यात् इति आपत्तिः इफ् वि टेक् स्थानिवद्भाव इन् सुध्युपास्यः वि केनाट् डु द्वित्व बिकास् इफ् वि अप्लै स्थानिवद्भाव यकार विल् बिकम् लैक् इकार दट् इस् इट् विल् हाव् अच्त्व इट् कुड् बि काल्ड् अच् बै स्थानिवद्भाव इफ् इट् इस् काल्ड् अच् देन् बिकास् द रूल् अनचि च सेस् अनचि द्वित्वा कम्स् ओन्ली वेन् दिस् इस् नाट् अच् If this is ach, we cannot do dvitva. So, dvitvam na syat, iti apatihi. The doubt somebody is posing is that dvitva you are doing is not right. Why is it not right? Because here can be called ach by sthanivat bhava. But the objection does not hold because the sutra itself tells analvidhau sthanivat bhavaha. Sthanivat adeshaha analvidhau. Atra sthani kaha ikaraha. Saka eko varanaha. Al. तम् ईकारम् आश्रित्य ईकारः अच् तम् अचम् आश्रित्य द्वित्वनिषेधः कर्तुम् इष्यते तस्मात् अल्विधिः भवति द्वित्वम् द्वित्वनिषेधः अल्विधिः भवति तस्मात् अत्र स्थानिवद्भावः नास्ति we cannot apply sthanivar bhava because what we are trying to do, which is vitvanishetha, happens to be an alvidhi. Vitvanishetha depends on the single letter, ikara, which is a single letter, which is al, and it being ach. Vitvanishetha depends on ikara being ach. That is, it depends on a single letter. So, we cannot do sthanivar bhava here. Therefore, we can do dipra without any problem, is the conclusion. So, it's just an objection was raised that because of sthanivad bhava, we cannot do dipra. And the answer is, we can still do dipra because sthanivad bhava does not apply here. Right? Anena iha yakarasya sthanivad bhavena achtram anshritya anachi iti dipra nishetho na shankyaha kutaha analvidhau iti tan nishetha. स्थानिवद्भावस्यैव निषेधः अनल्विधौ अल्विधौ स्थानिवद्भावः न भवति तस्मादत्र स्थानिवद्भावस्य अवकाशः नास्ति इति निर्णयः किन्तु अल्विधावपि स्थानिवद्भावः भवति वा इति प्रश्नः क्वचित् अल्विधावपि स्थानिवद्भावः इष्यते देर् आर् केसस् वेर् वि नीड् स्थानिवद्भाव ईवन् इन् अल्विधि फार् एक्साम्पल् गणसङ्ख्याने इति धातुः दशमगणीयः चौरादिकः धातुः गण गणयति इस् टु कौण्ट् सो गण इस् अ धातु आफ् द टेन्त् गण सो गण इति अकारान्तः धातुः गण चत्वारः वर्णाः सन्ति गकार अकार णकार अकाराः तस्मात् णिच् इति प्रत्ययः क्रियते इदानीम् अतोलोपः इति सूत्रेण अर्धधातुके परे अकारान्तस्य लोपः भवति इति सूत्रेण अकारस्य लोपः क्रियते णकारात् परः यः अकारः सः लुप्स्यते गण इ लिच् इत्यस्मिन् इ इति शिष्यते गण इ इति अस्ति इदानीम् अत उपधायाः इति वृद्धिः प्राप्नोति सूत्र अत उपधायाः विच् टेल्स् दट् इफ् अकार इस् इन् द उपधा उपधा मीन्स् द लास्ट् बट् वन् लेटर् Upadha is a term which is used in Vyakarana. Panini defines it. Gives the sutra sometimes. The last, no, Ata Upadhayaha tells, if Akara is in the Upadha, then it will get Vriddhi. Vriddhi means for Akara, it will be Akara. If we do atopadhayaha vritthi, then we'll have to replace gana. Gana becomes gana and the rupa would become ganayati. But we need ganayati. The rupa happens to be ganayati. We do not want a vritthi here. How can we prevent vritthi? Vritthi nishayaha satam kartum shakyate. Sthanivadbhavaha asti seta vritthi nivarayatum shakyate. If we can apply sthanivadbhava, we can prevent the vritthi. How? Ga, na, a, lich, ityasti, akaraha, yuktaha, nakara, uttara, akaraha, luktaha. Idani, lopaha, api, adesha, eva. We consider, for all purposes, lopa is an adesha. It is a replacement of an existing thing with a non-existing. So, lopa is still an adesha. So, we say, adeshaha, kaha adeshaha, akara lopaha, sthani vat syat, akara vat syat. It is utta. If we apply sthani vat bhava, even though akara has been deleted, we can assume that it is still there. If akara is there, the upadha will be nakara. As long as we have this akara, the penultimate letter is n and not a. Right? If there is no akara, then the penultimate letter would be a. But as long as akara is there, the penultimate letter is n. Upadha is n. So, if we bring akara by sthanivadbhava, then since the previous akara is not upadha, we will not get ata upadhayaha. Akarasya yadi sthanivadbhavena akaraha aniyate, tarhi nakaraha upadha bhavati, natu vakarottara akaraha. Upadhatva bhava deva akarasya vriddhihi na bhavati. Ata upadhayaha iti sutrasya pravrittireva nasti, vriddhihi na bhavati, ganayati iti rupam siddhyati. किन्तु अयम् अल्विधिः अकारस्य स्थानी अकारः एकः वर्णः तम् आश्रित्य वृद्धिनिषेधः यदि कर्तुम् इष्यते तर्हि अयम् अल्विधिः स्थानिवदादेशः अनल्विधौ इति उक्तम्। अस्य अल्विधित्वात् अत्र स्थानिवद्भावः कर्तुं न शक्यते। वी केनाट् अप्लै स्थानिवद्भावः हियर् बिकास् इट् इस् अन् अल्विधि। द स्थानि विच् इस् अकार हेपन्स् टु बि अ सिङ्गल् लेटर्। सो इफ् वी केनाट् डू स्थानिवद्भावः वी आर् स्टिल् stuck with the previous problem that we will have to do vriddhi for akara. Ayam alvidhi kutah alvidhi sthani yaha akara sacha alvhavati tam ashritya vriddhi nishedha kartum ishyate tasmata analvidhau iti nishedhata sthani vidbhavah na prapnoti. So to overcome this problem Panini begins a second sutra for sthani vidbhava. The first sutra, the general sutra, sthani vadadeshva analvidhau applies only when it is not alvidhi. Because if it is alvidhi, then sthanivadbhava will not apply, is what the sutra says. But even in alvidhi, there are cases where we can do sthanivadbhava, provided certain conditions are satisfied. Idhisheshu sthaleshu, arthata ganayati ityadishu alvidhavati sthanivadbhava ishyate. Tasmati maninina, अतःपरस्मिन् पूर्वविधौ इति द्वितीयं सूत्रम् आरब्धम्। स्थानिवदादेशो अनल्विधौ अतःपरस्मिन् पूर्वविधौ त्रीणि पदानि सन्ति। अतः परस्मिन् पूर्वविधौ पूर्वसूत्रात् स्थानिवदादेशः इति अनुवर्तते। कः अर्थः? अल्विध्यर्थमिदम्, अर्थात् अल्विधावपि स्थानिवद्भावम् आश्रयितुम् इदं सूत्रम् आरब्धम्। किमुच्यते अनेन सूत्रेण? परनिमित्तः अजादेशः स्थानिवत् स्यात् स्थानिभूतात् अतः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये इति सूत्रार्थः। त्रयः नियमाः सन्ति अस्मिन् सूत्रे। अतः आदेशः स्यात् इत्युक्ते यः स्थानिवद्भावेन यस्य आदेशस्य स्थानित्वम् आनेतुम् इष्यते सः अतः आदेशः स्यात्। दिस् सूत्र provides sthanivadbhava even in alvidhi, provided three conditions are satisfied. The first condition is that the adesha has to be an ajadesha. That is, the adesha should be replacing an ach, an oval, or a swara. That is the first rule. The second rule is paranimittaha. The adesha should have been mandated depending on the para. That is, depending on whatever follows. Param nimitti kritya adeshah kritah syat. Tritiyaha niyamaha sthanibhutad atah purvasya karyam bhave. Idhaniyam yat karyam kartum ishyate. The thing which you are planning to do next should be targeted at something which was before the sthani. So we will understand if we look at an example. We have the same ganayati. We have Gana, Gana, E, Gana and Vich. Okay. Idhaniyam kaha adeshaha, lopaha adeshaha, akara lopaha eva adeshaha. Sthani kaha akaraha, akarashcha achi, tasmata asaha akarasya adeshaha, lopaha. The first rule is satisfied in Ganayati because the adesha you are doing is lopa, the sthani was akara, which happens to be an achi. So, ajadeshaha. Lopa here is an ajadesha. Paranimittaha ajadeshaha. The lopa, we did a lopa. When did the lopa occur? When it is followed by an ardhadhatuka pratyaya. Do not worry about what is an ardhadhatuka pratyaya. Here the lopa was dependent on the suffix. That much is enough. So, gana nich. Nich is the suffix. So, nichi pare or ardhadhatuka pratyaya pare. The sutra atolopaha tells when the akaranta is followed by an ardhadhatuka suffix, then the akara gets lopa. So it is paranimitta. Param pratyayam nimitti kritya kritaha adeshaha lopaha. So the second rule is satisfied. The third rule is the karya which you intend to do now, which is vriddhi nishedha. Vriddhi or vriddhi nishedha is for the previous akara. Thani bhuta rataha. Thani akaraha. Akarottara akaraha. Tasmat purvasya lakarottara akarasya vriddhi karaniyaha. We are planning to do a vriddhi for a particle which was present before the sthani. The sthani was the second akara, ganakarottara akara, the vriddhi will happen for the first akara, gakarottara akara. So the akara is situated before the sthani. So there are three rules. First rule, ajadesha. The lopa is occurring in the place of an ach. So it is an ajadesha. Second one is paranimitta. The lopa has the pratyaya as the nimitta. The following pratyaya is the nimitta for lopa. So it is paranimitta. Third one, the karya which is intended to be done now is before the sthani. So since these three rules are satisfied, it says paranimittaha ajadeshaha sthanivatsya. Paranimittaha, pratyaya nimittaha ajadeshaha lopaha sthanivatsya akaravat bhavati. Sthanibhutadataha akarat purvatvena drishtasya gakarottara akarasya vidhau kartavya. That is, when we try to do a vriddhi for the first akara, there will be sthanivat bhava. Even though the previous sutra told analvidhau, this sutra tells if these three conditions are satisfied, even in alvidhi, there will be sthanivat bhava. So if we do sthanivat bhava, you have an akara. The second akara is still there. Since the second akara is there, the first akara is not upadha. The upadha now is na and not a. Because of that, ata upadhayaha will not apply and it will remain ganayati. We cannot do the vritti here. Is the question. So I hope you understand this. Ganayati is an example for atasparasmin purva vidhau. Why do we need atasparasmin purva vidhau? Because there are rupas like ganayati in which we need sthanivat bhava even in alvidhi. But now, if we accept this sutra, atasparasmin purva vidhau iti sutre sati, punaha sudhyupasyaha ityatra vidvanishedha pattihi. Katham sudhyi upasyaha ityasti yanadeshe krata. Atra api trayaha api niyamaha sambhavanti. Here also we have all the three conditions being satisfied. The first is ajadeshaha. Ataha nama ikarasya sthane yakaradesha sutrutaha. Tasmad yakaraha ajadeshaha. Paranimittaha. Achipare ikarasya yakaradesha kriyate. The yanadesha depends on the following ach. So it is paranimitta. Achi iti uktatvant. Achipare ikarasya yanadesha. Tasmad paranimittaha. Karyam cha sthanibhuta jajaha purvatvena drishtasya. Sthanibhutaha ach. Ikaraha, sudhi ityatra ikaraha, tasmat purvaha dhakaraha. The dhakara is before the sthani. It is present before dhakara. Now, dhakaratya dvitre kartavye, paranimittaha ajadeshaha, yakaradeshaha, sthanivad bhavati, ikaravad bhavati. Arthat, yakaraha ajbhavati. Yadi akaraha ajbhavati, tarhi anati iti uktatvata dvitvam na bhavati. If we can apply, if we do apply sthanivad bhava here, again yakara will be treated as ach. If it is treated as ach, you cannot do dvitva. Right? So we have a problem again. The first problem was raised was, since it says sthanivad adeshaha, yakara will become like ikara, it will become ach and we cannot do dvitva. That was solved by saying analvidho. Sthanivad bhava applies only if it is not alvidhi. Since this is an alvidhi, there is only one al. Ikara is a sthani, which is only one al. This is alvidhi and we cannot apply sthanivad bhava here, was the answer. But now the question is, even in alvidhi you have sthanivad bhava using ajahparasmin purva vidhau. If we apply ajahparasmin purva vidhau, here again we have yakara being like ikara, that is yakara becoming ach. If yakara is ach, anachita, since it says anachi, we cannot do dvitva. So we have the same problem again. So what do we do for that? Iti yanaha sthanivad bhave prapte ajahparasmin purva vidhau iti sutrena yakaraha sthanivad bhavati ikaravad bhavati iti apatthi iti prapte sthanivad bhavasya nishedhatmakam surmasti na padanta dirvachana vare yalopa swara savarna anuswara dirgha jash chat vithishu. A long sutra, but it's very clear. There's nothing to be discussed about it. It just says in all these cases, Thanivadbhava will not apply. Na. Padadvayam asti. Na. Padanta dvibhachana vareyalopa sarasavarana anuswana dhirkha jashtar vihishu. Kim na? Thanivadadeshaha na. Purva sutrata. Thanivadadeshaha iti anuvartate. Atasparasmin iti api anuvartate. Saha arthaha. Padasya charamavayave dvirvachanadauca kattavya. Arthata padante dvirvachane vareyalopa svara savarna anuswara dhirkha jashtar. Ityeteshu kartavyeshu paranimittaha ajadeshaha na sthanivat. Alvidhau yaha sthanivat bhavaha vihitaha. Atas parasvin puru vidhau ityanena saha na bhavati. Yudhi padantasya karyam kriyate, padantasya vidhihi, tarhi sthanivat bhavaha nasti. Yedi dvirvachanasya vishayaha, tarhi sthanivat bhavaha nasti. Yedi dastram kartavyam, tarhi sthanivat bhavaha nasti. Yedi sthanivat bhavaha nishichate. इदानीम् अत्र शुद्धोपास्यः इत्यत्र धकारस्य द्विर्वचनम् द्विर्वचनम् नाम द्वित्वं करणीयम् द्विर्वचनविषये स्थानिवद्भावः नास्ति इति स्पष्टम् उच्यते अनेन सूत्रेण. सो दिस् सूत्र वेरि क्लियर्लि टेल्स् इफ् इट् इस् संथिङ्ग् कन्सर्निङ्ग् द्विर्वचन इट् इस् द्वित्वा देन् यु विल् नाट् हाव् स्थानिवद्भावः. सो इवन् दो आल् कण्डीशन्स् फार् अतःपरस्मिन् पूर्वविधौ आर् अप्लिकेबल् यु विल् नाट् हाव् स्थानिवद्भावः. So that takes a problem with Siddhi Upasyaha. Sudhi Upasyaha, Iko Yanati Ityanena Yanadeshe, Sudhu Yu Upasyaha. Sataha, Sudhu Dhu Yu Upasyaha. Anachicha, Yatohi Atasthanivad Bhavaha Nasti, Tasmad Yakaraha Na Ache, Anachipare Atasparasya Rahad Dittvam, Ityanena Dhakarasya Dittvam Kriyate. I think there are a question. Let me just look at it. Yakara says, which was the is right. Here it should be yakarasya achte, not vakarasya. So I'll correct it. Any other questions? Are we clear with sthanivadbhava? I think we are moving on. Sthanivadbhava was a topic which was brought in to make an objection, though the objection did not stand because of various reasons. Right? So are we clear with this? If you have any questions so far, please ask. Otherwise, we'll move on. Shall we proceed? Okay. So now we are here. We did Yanadesha and then we did Vitva. So we now have Su Dhu Dhu Yu Upasyaha. Next. Jalam Dash Shashi. It is Sutram. Bahutaragam Sutram. Padatrayamasti. Jalam Dash Shashi. त्रयः अपि प्रत्याहाराः. झल् इति प्रत्याहारः. झभ खझ झभै इत्यत्र झकारादारभ्य हल् इत्यत्र लकारपर्यन्तम्. झभ खझ झबगडद खफ छठथ चटत कप षष ह. सो झल् इस् अ प्रत्याहार विच् कवर्स् आल् कान्सनेन्ट्स् एक्सेप्टिङ्ग् द फिफ्त् लेटर् एण्ड् द अन्तस्थ. एक्सेप्टिङ्ग् द फिफ्त् लेटर् आफ् द वर्ग एण्ड् हियर् आर् लव. Jhal covers all consonants. Jash, Jabha Gada Dash. The third letter of each Varga is covered by the Pratyahara Jash. Jhash is a Pratyahara. Jabhai Gada Dash, Jabha Gada Dash. Covers the third and fourth letters of each Varga is Jash. So Jhalam, it is Shashti Vibhakti. Tahar Taha, Jhal Varna Naam Sthane. Shashti Sthane Yoga iti Paribhashaya. Shashtyaha Sthane Ityathaha. झल् वर्णानां स्थाने जश् भवति. जश् इति प्रथमाविभक्तिः. प्रथमाविभक्तेः सर्वत्र विधेयः अर्थः जश् भवति. झलां स्थाने जश् भवति. द झल् लेटर्स् विल् बि रीप्लेस्ड् बै जश् लेटर्स् वेन् झषि इति सप्तमी विभक्तिः. झषि परे वेन् इट् इस् फालोड् बै अ झष् तस्मिन्निति निर्दिष्टे पूर्वस्य इति परिभाषया झषि परे सः सूत्रार्थः दीक्षित इति स्पष्टम् इत्युक्तम् दीक्षित सेज् इट् इस् क्लियर् बिकास् वि हव् स्टडीड् आल् दीस् परिभाषा द सूत्रार्थ इस् वेरि क्लियर् धलां स्थाने झश् स्यात् झषि परे पश्यामः शुद्धि उपास्यः इत्यस्ति इदानीं पूर्वः धकारः झल् झल् प्रत्याहारे झभ घढ धकारः अस्ति पुनः द्वितीयः धकारः झष् भवति झभ घढ झष् सो झलां झषि परे झष् आदेशः स्यात् द झल् विल् बि रीप्लेस्ड् बै झष् इफ् इट् इस् फालोड् बै झष् इस् द सूत्रार्थ द स्थानि हियर् इस् द झल् दिस् इस् द फस्ट् धकार आदेशाः सन्ति पञ्च झष् इत्युक्ते झ भ घढ द पञ्च आदेशाः एक एव स्थानि कः भवेदादेशः स्थाने अन्तरतमः इति परिभाषा प्रसङ्गे सति सदृशतमः आदेशः स्यात् एतेषां मध्ये झ भ घ ड द इत्येषां मध्ये यः धकारस्य अत्यन्तं सदृशः स एव आदेशो भवति तादृश्यं कतिविधं चतुर्विधं स्थान गुण प्रमाण अर्थतः आदौ दृश्यते सर्वत्र स्थानसादृश्यम् स्थानतः आन्तर्यं बलीयः इत्युक्तत्वात् धकारस्य स्थानं दन्ताः विपुलसानां दन्ताः जकारस्य तालु ईचेषानां तालु उपूपद्मानीयानाम् ओष्ठौ अकुहविसर्जनीयानां कण्ठः ऋतुरसानां मूर्धा विपुलसानां दन्ताः इदानीं दन्तस्थानीयत्वमस्ति दकारस्य तकारस्य तृतीयवर्णः दकारः तस्मात् धकारस्य स्थाने झल् वर्णस्य स्थाने झष् वर्णः आदेशः इत्युक्ते दकारः धकारस्य स्थाने दकारः आदेशः सु दृ य उपास्यः सुध्युपास्यः इति जातम् अग्रे इति धकारस्य दकारादेशः अदर्शनं लोपः अत्र पुनः काचन आपत्तिः दीयते दिस् इस् अ संज्ञासूत्र दीक्षितर् इस् इण्ट्रोड्यूसिङ्ग् दिस् संज्ञासूत्र फार् सम्थिङ्ग् एल्स् आल्वेस् टोल्ड् संज्ञासूत्र इस् आल्वेस् इण्टेण्डेड् टु बि यूस्ड् इन् अ विधि नौ हि इस् इण्ट्रोड्यूसिङ्ग् अ न्यू संज्ञा अ न्यू टर्म् काल्ड् लोप वाट् इस् लोप अदर्शनं लोपः पदद्वयमस्ति स्थाने अन्तरतमः इत्यतः स्थाने इत्यनुवर्तते स्थाने अदर्शनं लोपः स्थानञ्च प्रसङ्गः प्रसङ्गे सति अदर्शनं लोपः प्रसक्तस्य अदर्शनम् वेन् यु हाव् सम्थिङ्ग् विच् शुड् हाव् बीन् देर् विच् शुड् हाव् बीन् अटर्ड् एण्ड् यु डु नाट् सी इट् यु डु नाट् हियर् इट् इट् इस् नाट् प्रनौन्स्ड् देन् इट् इस् काल्ड् लोप सो देट्स् आल् ऐ मीन् लोप इस् अ वेरि सिम्पल् थिङ्ग् इट्स् नाट् ऐ मीन् देर् इस् अ डिफरेन्स् बै हि सेज् अदर्शनम् इट् इस् नाट् कम्प्लीट्लि रिमूव्ड् It is just that you cannot see it. For all practical purposes, it is not there. That is lopa. So why do you lopa? There is a Vidhi Sutra which uses this lopa samya. It tells, Sanyogantasya lopaha. Iti kinchana Vidhi Sutra masti. Kaha arthaha. Padadvaya masti, Sanyogantasya lopaha. Padasya iti adhikaraha asti. Sanyogantasya padasya lopaha. Sanyogantam yat padam. तदन्तस्य लोपः स्यात् संयोगः नाम फलोऽनन्तरा संयोगः इति पूर्वमेव संज्ञाप्रकरणे अधीतम् इदानीं पश्यामः सुधी उपास्यः इत्यस्ति अयं समासः सुधीभिः उपास्यः इति समासः समासः सर्वदा पदद्वयस्यैव भवति तस्मात् सुधी इत्येकं पदम् उपास्यः इति अपरं पदम् सुधी इत्येतत् पदं तस्य धी ईकारस्य यकारादेशः क्रियते ततः द्वित्वं क्रियते सु दु ध य इति इदमपि इदानीं पदमेव द टर्म् सुध्य इस् नौ अ पद अट् द एण्ड् आफ् द पद यु हेव् अ संयोग दु ध य इति त्रयाणां वर्णानां संयोगः अस्ति हलः अनन्तराः संयोगः अज्भिः अव्यवहिताः हलः संयोगसंज्ञाः स्युः इत्यनेन दकारधकार यकाराणां संयोगः अस्ति अनेन सूत्रेण संयोगान्तं यत् पदं यस्मिन् पदे संयोगः अन्ते अस्ति तदन्तस्य लोपः स्यात् इत्यनेन यकारस्य लोपः भवतु इत्यापत्तिः. The objection is, using संयोगान्तस्य लोपः, let us delete this yakara. Why? Because sudhya is a pada and there is a sanyoga at the end of the pada. So, the yakara, the end letter of the sanyoga will get lopa, will get deleted. So, let's delete yakara is the objection. Iti yalope prapte, yalopa apattihi asti. Tada, ekam vartikam asti, yanah pratishedho vatsuha. वार्तिकं पूर्वमेव दृष्टं ऋजुवर्णयोः परस्परं सावरण्यं वाच्यम् इत्यत्र दृष्टम् एकं वार्तिकम् इदम् अपरं वार्तिकम् जस्ट् टु रिमैण्ड् वार्तिकल् दर् एड् आन्स् टु पाणिनि सूत्रम् सर्वं वेदस् वेद वार्तिककारा कात्यायन देर् सम् अडिशनल् कार्या. सो दिस् इस् वन् सच् वार्तिका. यणः प्रतिषेधो वाच्यः अर्थात् यणः संयोगान्तलोप प्रतिषेधो वक्तव्यः. यण् वर्ण विल् नाट् गेट् संयोगान्तलोप, दे केन् नाट् बि रिमूव्ड् बै संयोगान्तस्य लोपः इस् वाट् द वार्तिका टेल्स्. दिस् कम्स् इन् संयोगान्तस्य लोपः. वार्तिककारा टेल्स् यणः प्रतिषेधो वाच्यः. प्रोहिबिट् द लोप आफ् यण्. सो यूसिङ्ग् दिस् संयोगान्तलोप यु केनाट् डिलीट् यण्. सो इफ् वि गो टु द because of this sudhyu pasyaha the yakara will not get loka because of this vartika. So now we still have sudhya upasyaha. Next there is another sutra, another vartika, yano mayo dve vachye. Yanaha mayaha dve vachye kaha arthah isya vartikasya. Yanaha iti panchami vikha. पञ्चम्याः कः अर्थः? तस्मादित्युत्तरस्य इति सूत्रेण यणः परस्य. मयः इति षष्ठी विभक्तिः, षष्ठीस्थाने योग इत्यनेन मयः स्थाने द्वे इति प्रथम नाम द्वित्वं भवति. यणः परस्य मयिवर्णस्य द्वित्वं भवति. इफ् अ मयिवर्ण इस् फालोयिङ्ग् द यण् वर्ण देन् यु विल् गेट् द्वित्व इस् वाट् द वार्तिका सेस्. यण् प्लस् मयि will give you dvitva. But asya vartikasya aparamapi artham vaktum shakyate. So yanaha mayaha iti padadvayam asti. Yan iti padam asya padasya yan yanav yanaha yanam yanav yanaha yana yanbhyam yanbhihi yane yanbhyam yanbhaha yanaha yanbhyam yanbhaha yanaha yanavu yanam. Panchamyeka vachane shashtyeka vachane ubhayathapi yanaha ityeva rupam. Yan is a nakaranta word which has the same form in both panchami ekavachana and shashti ekavachana. So if you are just given yanaha, you cannot decide is it panchami or shashti. Same is the case with mayaha. Mayaha can also be either panchami or shashti. Here we assume that yan is panchami and mai is shashti. But what if yanaha iti shashti? Arthat yanaha sthane mayaha iti panchami. मयः परस्य यणः स्थाने द्वे स्यात्. अर्थात् मै प्लस् यण् विल् आल्सो बि द्वित्वा. हियर् द द्वित्वा विल् बि फार् द मै. मयः षष्ठी, मयः स्थाने द्वे भवतः. हियर् यणः स्थाने द्वे भवतः. द यण् वर्ण विल् बि द्वित्वा. सो देर् इस् नो वे यु केन् डिसैड् वेदर् टु यूस् दिस् आर् दिस्. सो देर् आर् टु आप्शन्स्. यु केन् इदर् टेक् यणः इति पञ्चमी, मय इति षष्ठी, or you can take maya iti panchami yana iti shashti. If you take maya iti panchami yana iti shashti iti pakshe, if you are taking the second case, treating mayaha as panchami and yanaha as shashti, then if we come to sudhya upasyaha, we have sudha dhya upasyaha. Dh is a mai. Mai is a pratyahara beginning from yamangananam ma till kapai. So it covers all vargiya vyanjanas except nya. All vargiya vyanjanas except nya are covered in mai. And ya, as we know, is yan. So mayah parasya yanaha dvevastaha. This is the yakarasya api dvitvam bhavati. Dvitvesati sudhu yu yu upasyaha. Dakaradvayam su dakaradhakara yakara yakaraha sudhyupasyaha. इति रूपं सिद्ध्यति. सो इफ् वि डू अ द्वित्वा सा यकार using the Vartika Yanomayo Jvevarche. Assuming that it is Mai is Panchami and Yan is Shashti, since the conditions are satisfied, Yakara will also get a Sitva and you end up with a form, Suddhupasyaha, which has two dhakaras and two yakaras. Okay. So now, what do we actually have is, tadiha dhakara yakara yohu dvitva vikalpat chatvari rupani. Dhakarasya dvitvam yakritam, anachicha ityanena dvitvam kritam, yakarasya ati dvitvam kritam, tena sutrena, tena vastikena, yano mayo devasya. Ubhayam api vikalpam. Ubhayachapi vikalpah asti. Anachicha iti sutrataha kaha, Ajah parasyaraha dve vastaha. So it says, vitva is optional. Yanomayo dvevache is also optional. If you take the other party, that is if you consider yan as panchami and mai as shashti, you will not get vitva. If you consider mai as shashti, panchami and yan as shashti, you will get vitva. So there is also two options there. So since both these vitva sutras are optional, you end up with four rupas for suchipas. Ekadham ekayam. Ekam rupam yatra, ekahaya dhakaraha, ekaeva yakaraha. Aparam rupam yatra, dvidham dviyam. Dhakaras yapi dvitvam bhavati, yakaras yapi dvitvam bhavati. Dvidham ekayam. Dhakaras ya dvitvam kriyate, yakaras ya dvitvam na bhavati. Ekadham dviyam. Dhakaras ya dvitvam nasti, yakaras ya dvitvam asti. Iti chatvari rupani. Katham Sudhi Upasyaha Iko Yanati Ikaha Sthane Yan Syat Ati Samhitayam Vishaye Ikaha Nama Ikarasya Yan Yakaraha Adeshaha Syat Ati Ukare Pare Yanena Sudhi Upasyaha Yanim Anachicha Iti Dhakarasya Dvitvam Yarah Parasya Ajah Parasya Yarah Devastaha Nato Ati Ajah Nama Ukara Parasya Dhakarasya Dvitvam Havati Nato Achi Yak Su Dhya Upasyaha Iti Dhakarasya Dvitvam. This is an optional sutra. You can either do the Dvitva or not do the Dvitva. Assuming you do the Dvitva and proceed. Now Dhya Iti Sthite Jhalam Dish Chashi Jhalvaranasya Nama Purva Dhakarasya Chashi Pare Paradhakare Pare Jashtvam Havati. Jastvam nama dakaraha bhavati. So, dhya upasyaha iti jastvam. Punaha, yakarasya api dvitvam kriyate. Yanomayo dvevache. Mayah parasya yanaha. Mayivarnaha nama dhakaraha. Tasmat parasya yanaha. Yakarasya dveva dvitvam bhavati. Ityanena yakarasya api dvitve. Subhyupasyaha iti rupam. So this is the second rupa which we saw in the previous slide. Dvidham dviyam. I go back to the previous slide. The second rupa which is listed by Dikshitar is dvidham dviyam. That which has two dakaras and two yakaras. That is both dhakara and yakara has dvitva. So you have one rupa of the four. Next. Yakarasya dvitva bhave. That is you do not apply the option. Since you have an option for two options. So you choose to not apply the second optional. So what will happen? Sudhi upasyaha, yan, sudhi upasyaha, dhakarasya dvitvam, anatisa ityanena, sudhadhaya upasyaha, jalam shashi ityanena dhakarasya dvitve, sudhi upasyaha, dvidham ekayam, dhakarasya dvitvam asti, yakaraha ekayeva, dvidham ekayam. So we looked at that screen, it is a third rupa given by Dikshitar, dvidham ekayam. Next, if you choose to not apply the first optional, you apply the second optional, Vartika, but you do not apply the Anachicha. So you have Sudhi Upasyaha, Yan Sudhi Upasyaha, then the Yakara will get Jitra. You do not do Jitra for Dhakara. So you do Jitra only for the Yakara. Yano Mayo Jeva Chetanena Yakara Sudhi Upasyaha, Ekadham Dviyam. Has one dhakara and two yakara. This is the fourth rupa given by Dikshitar. Next, last, you choose not to do both options. You don't worry about the ditva at all. You choose to not do the ditva. What happens? Sudhi upasyaha, yanadeshe, sudhi upasyaha. Ekadham ekayam. One thakara and one yakara. This is the first rupa which is indicated by Dikshita. So you have four rupas. If you are joining sudhi upasyaha, four rupas, end up with four rupas, of which this is probably the most common. If we are given sudhi upasyaha, we will do sudhi yanadesha and stop. But the sutras do not stop there. You can further apply and end up with one which has both dha and ya doubled. So, any questions in sudhi upasyaha? Sudhi plus upasyaha gives way to four forms. No question? Clear? Okay. So, as an assignment, please try out the sandhis of these three. Madhu plus arihi, dhatru amshaha, lu akritihi. So, solve what, I mean, all these are examples for yanadesha obviously, but solve those, what is the form and how many forms will you have? Will we get four or three or two or one? Or more, again, is there anything which we can apply as ditva to or not? So that will be an assignment for the next class. Solve these three forms and come back with the results. Okay? Are there any questions? Yeah. Priya has a question. The same question was posed by somebody else and I think I answered it in today's mail. The question is, we do dvitva, whether we do it is dvitva for dhakara or dvitva for yakara. In either case, even after doing the dvitva, you still have an option. You had, what was the condition for dvitva? Mayah parasya anaha, a mai varna which is followed by a yan varna, that is dhu followed by ya, the ya gets doubled. Now, even after doubling, you still have dhu which is followed by ya. So why not double it again? Why not bring in a third yakara? It is the same thing. So, paribhasha sutra metamasti, lakshya lakshanam sakradeva pravartate, ekasmin lakshya, ekam lakshanam, ekavaram eva pravartate. In one lakshya, this is if you are taking one case, it's one yakara. In case of one yakara, the dvitva sutra, which is enomayo dvevachya, either sutra or vasika, can apply only once. You can never apply the same sutra to the same target twice. This is general rule everywhere. You can never apply the same sutra twice for the same target. Right? So you do not have a recursive dvitva. Paribhasha just mentioned. Okay. I think if you go back to your today's mail, you'll find it. But anyway, I'll do it at the end of class. There is one more question by Mohana. He asked to explain Anal Vidho. One second, Sanyaradeshaha Analvitho. Kim nama alvithihi nama? Al nama etaha varnaha. Sthani albhavati chet. If the sthani is a single letter, al covers all letters. Al is a pratyahara from ayivun akara to the l of hal. So al means all letters. That is one letter. Al is a paryaya for a varna or an akshara. So if the sthani is al, if the sthani is a single letter, then there is no sthani vatthava. To put it very simply, if the sthani is a single al, then there won't be sthani vatthava. For example, you have diva, where diva out, the vakara is getting the aukara resha by the sutra diva out. So vakara the sthani is a single al. Right? So if in such a case you will not have sthani vartava, if the sthani is an al vidhi. Okay? So there is actually one more point to it. That is, if al vidhi is where the vidhi, that is whatever you are doing, depends on that al. That is, what are you trying to do here? If you have sthani vartava, that is, if I have sthani vartava, I'll tell that since au is also hal, I'll take away the I'll do lopa for the sutrapaya, is what I said. The lopa of sutrapaya depends on what? It depends on the previous letter being a hal. It depends on the previous letter being a consonant. So that is a single letter. The thing which I want to do, which is the sulopa, sutrapaya lopa, depends on the single letter of the sthani. It depends on the vakara of the sthani. If this adesha weren't there, that is, if it was only div and su, the supratyaya would have got loka, which you see in all halanta words. If you have, say, marut and su, the su gets loka, you have marut, maruto, marutaha, charat, charado, charadaha, samit, samidho, samidhaha, hal, halau, halaha. Everywhere, if it is a halanta letter, the supratyaya gets loka. So the loka of supratyaya depends on a single letter in the sthani. It depends only on vakara and the sthani. If vakara is hal, it will get loka. So this is an alvithi. So since this is an alvithi, there is no sthaniyasthava. Hope that is clear. If you still have a question, you can ask. Any other questions? No questions? Okay, so I think we can stop here for today. So please look at Yen Sandhi and work out those three examples and see where Vidva will apply and where it will not apply. Okay. We'll continue with the Sandhi Prakaranam in the next class. Yena akshara samam nayam adhigamya maheshwarat tatsvam vyakaranam proktam tasmai paninaye namaha. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते।